प्रियाः श्रोतारः, हार्दिकं स्वागतम् अभिनन्दनं च भवतां समेषाम् आकाशवाण्याः श्रव्य संस्कृत पत्रिकायाः संस्कृत साप्ताहिक्याः नूतनेऽस्मिन् अंके। अहमस्मि दिव्यानन्द झाः। सुधी श्रोतारः, आरम्भे श्रुमस्तावत् सुभाषितमेकम् अद्य, तच्च मधुरेण स्वरेण प्रस्तौति अस्माकं सहयोगिनी निधि तिवारी।
क्षणशः कणशश्चैव विद्यामर्थं च साधयेत्, क्षणत्यागे कुतो विद्या, कणत्यागे कुतो धनम्।
अहो, साधु उक्तम्। मित्राणि, सम्प्रति अग्रे सरामः प्रसङ्ग प्रभागं प्रति। अत्र अद्य लयताल पूर्वकं स्तवनं करोति अस्माकं सहयोगी नरेन्द्र दत्त सेमवालः।
प्रातः स्मरामि ललिता वदनारविन्दम्, बिम्बाधरम् पृथुलमोक्तिकशोभिनासम्, आकर्णदीर्घनयनम् मणिकुण्डलाढ्यम्, मन्दस्मितं मृगमदोज्ज्वलभालदेशम्।
अहो, सर्वं सुमधुरम्। अयि जागरूकाः श्रोतारः, सम्प्रति साप्ताहिकी वार्ता प्रभागे प्रस्तूयते साप्ताहिकः वैश्विकः वृत्तान्तः। अद्य अशेष जगतः साप्ताहिकीः वार्ताः आदाय उपस्थितः अस्ति अस्माकं सहयोगी निक्षितः शास्त्री।
लोकसभा निर्वाचनानां पञ्चम चरणाय प्रचाराभियानं सजवं प्रवर्तते। सर्वेषां दलानां शीर्षनेतारः मतदातॄन् स्वपक्षे मतदानं कर्तुं निरन्तरं जनसभाः कुर्वन्ति। ओडिशायां दुरापन्नायाः हिंसायाः कारणेन निर्वाचन प्रचारः बाधितः। गंजम जनपदे हिंसायाम् एकस्य भाजपा कार्यकर्तुः मृत्युः, अष्टौ संव्रणिताः संजाताः। झारखण्ड राज्यस्य ग्रामीण विकास मन्त्री आलमगीर आलमः षड् दिवसेभ्यः प्रवञ्चना सन्दर्भे प्रवर्तन निदेशालयेन स्ववीक्षायां स्थापितः। दक्षिण पश्चिम वृष्टि संचक्रम् एकत्रिंशत् दिनांकं यावत् केरलं प्राप्स्यति इति सम्भाव्यते। भारतीय पादकन्दुक क्रीडायाः महानायकः सुनील छेत्री राष्ट्रिय दलात् संन्यासस्य घोषणां कृतवान्। आईपीएल क्रिकेट क्रीडायाम् उपान्त्य चक्रस्य कृते क्रीडाः औद्भुत्यं भजन्ते।
मान्याः श्रोतारः, अद्य ज्ञान विज्ञानाख्ये साक्षात्कार प्रभागे अस्माभिः सह उपस्थिताः सन्ति जीआर इंटीग्रेटेड वैदिक एकेडमी जीवा गुरुकुलम् इत्यस्य संस्कृताध्यापिका डॉक्टर लक्ष्मी आर्या महोदयः। सम्प्रति अस्मदीय सहयोगिना पुनीत त्रिपाठिना साधितेन संवाद माध्यमेन जानीमः भारतीय ज्ञान प्रवाहं प्रति डॉक्टर आर्या वर्याणां विचारान्।
प्रियाः श्रोतृवृन्दाः, आकाशवाण्याः प्रसार्यमाणस्य संस्कृत साप्ताहिकीति कार्यक्रमस्य ज्ञान विज्ञानानुभागे अत्र अस्माभिः सह उपस्थिताः सन्ति जीयर इंटीग्रेटेड वैदिक एकेडमी जीवा गुरुकुलम इत्यस्य संस्कृताध्यापिका डॉक्टर लक्ष्मी आर्या महोदयाः।
आकाशवाण्यां मम साक्षात्काराय आहूतवद्भ्यः जनेभ्यः अहं स्वागतं व्याहरम्।
महोदये, भवती गुरुकुले पाठयति, सर्वप्रथमं अस्माकं श्रोतृगणान् तत्रस्थ वातावरणं कीदृशं भवति इत्यमुं विषयं कथयतु किञ्चित्।
तत्र भवता पृष्टं यत् भवती यत्र विद्यालये पाठयति तत्रस्थं वातावरणं कीदृशमिति। तत्र वयं जानीमः यत् भारते सर्वत्रापि श्रीवैष्णवानां दिव्यक्षेत्राणि बहूनि सन्ति। तेषां सर्वेषामपि सन्दर्शनं कष्टकरं भवति, धनव्ययोऽपि अधिकः भवति। अतः चिन्नजियर् स्वामिभिः भाग्यनगरे मुच्चिन्तल ग्रामे समतामूर्तिः इति मूर्तेः स्थापना कृता। तस्याः औन्नत्यं षोडशोत्तरद्विशत परिमिता रामानुजस्य मूर्तिः स्थापिता वर्तते। तस्याः मूर्तेः नाम वर्तते समतामूर्तिरिति। तां मूर्तिं परितः श्रीवैष्णवानाम् अष्टोत्तरशत दिव्यदेशाः सन्ति। अत्यन्त पवित्रस्थलं वर्तते इदम्। समता नाम एकता। अत्र मतभेदं कुलभेदं विहाय सर्वेपि सन्दर्शनाय आगन्तुं शक्नुवन्ति। अत्र आश्रमे नेत्रविद्यालयः अस्ति। तत्र एकादश द्वादश बीए कक्षस्थाः छात्राः पठन्ति। तेषामपि निःशुल्कशिक्षा वर्तते। गुरुकुलं च अस्ति अस्मिन् आश्रमे। औत्तरीयाः, दाक्षिणात्याः, मध्यप्रदेशीयाः, बिहारप्रान्तीयाः, नेपालदेशीयाश्च छात्राः पठनाय आगच्छन्ति। गुरुकुलेऽस्मिन् चत्वारः वेदाः पाठ्यन्ते। यजुर्वेदस्य माध्यन्दिन, काण्व, तैत्तिरीय इति तिस्रः शाखाः पाठ्यन्ते। आगमशास्त्रे च पाञ्चरात्रागमः पाठ्यते। संस्कृतव्याकरणं, प्रबन्धं, स्तोत्रादिकं च छात्राः श्रद्धया पठन्ति। अस्मिन् आश्रमे गोशालापि वर्तते, यत्र पञ्चशताधिकगावः विलसन्ति। जिम्स् नाम्ना वैद्यालयोऽपि प्रचलति। वैद्यकलाशालापि वर्तते। अल्पमूल्येनैव सर्वेषामपि वैद्यं क्रियते। आयुर्वेदालयोऽपि वर्तते। अत्र आयुर्वेदचिकित्सा, आङ्ग्ल एलोपेथि चिकित्सा, होमियोचिकित्सा इत्यादि सर्वमपि प्रचलति। आश्रमस्य सन्दर्शनाय आगतानां भक्तानां कृते भोजनव्यवस्थापि निःशुल्का वर्तते। छात्राणाम् अध्ययनसमये मध्ये मध्ये स्वामिनः समागत्य छात्रान् उद्बोधयन्ति। छात्राः भगवद्गीतां, कराटे, योगासनं, विष्णुसहस्रनामस्तोत्रे भगवद्गीतायाम् इत्यादिषु ग्रन्थेषु अवधानं कथं करणीयम् इत्यपि शिक्षन्ति। नाम गुरुकुलेऽस्मिन् छात्राणां सर्वाङ्गीणविकासः भवति। एवम् अस्मिन् आश्रमे समाजकल्याणार्थम् अनेकानि धार्मिककृत्यानि कुर्वन्ति। यत्र निवसन्तः भक्ताः अस्मिन् आश्रमे ये कार्यं कुर्वन्ति, ते सर्वेपि अस्मिन् कार्ये संलग्नाः सन्ति।
सुष्ठुक्तम्। साम्प्रतिके समये यदा देशे बहवः निजाधुनिक विद्यालयाः शिक्षायाः प्रमुखस्रोतस्वरूपाः सन्ति, तदा भवती गुरुकुलीय शिक्षां कथं पश्यति?
भवता यः प्रश्नः पृष्टः, अद्यत्वे वैयक्तिक विद्यालयाः सर्वत्र समाजे प्रमुखस्रोतांसि सञ्जातानीति। वयम् अस्माकम् इतिहासं पश्यामः चेत् जानीमः यत् प्राचीनकाले अस्माकं देशे गुरुकुलानि एव आसन्। तत्र वेदादिशास्त्राणां पठनपाठनं सर्वमपि प्रश्नोत्तरमाध्यमेन वा प्रत्यक्षविधिना वा एवं छात्रान् गुरवः बोधयन्ति स्म। इदानीन्तनकाले आधुनिकविषयाणां पाठनं भवति। अद्यत्वे सर्वत्रापि कान्वेण्ट् विद्यालयाः संस्थापिताः। तत्र छात्राणां मनोभाव परिवर्तनमेव अस्ति। पाठशालासु विद्या नास्ति, क्रमशिक्षणं न दृश्यते, तथा च स्वपुत्राणां पुत्रीणां विषये वा अश्रद्धा एव जायमाना अस्ति जनेषु। परसम्प्रदाय विषये तु श्रद्धा जायमाना अस्ति। गुरून् प्रति छात्राणां मनस्सु अनादरः दृश्यते। परं गुरुकुले एतत् सर्वमपि गुरून् प्रति कथम् आदरः दर्शनीयः, स्वमातापितॄन् कथम् आदरणीयाः स्वमातापितरः इति सर्वमपि गुरुकुले आचार्याः बोधयन्ति स्म। तदा स्वपुत्राणाम् आचरणं दृष्ट्वा मातापितॄणाम् आनन्दमयं जीवनम् आसीत्।
गुरवः साम्प्रदायिकमेव विषयं बोधयन्ति स्म। अद्यत्वे या विद्या दीयते उद्योगार्थमिव भ्रमं जनयति, परं उद्योगार्थमपि नास्ति, विद्यार्थमपि नास्ति। यां शिक्षां जनाः प्राप्नुवन्ति तस्याः शिक्षायाः स्वजीवने क्रियान्वयनमेव नास्ति। यावत्पर्यन्तं यां शिक्षां वयम् अधीमहे तस्याः शिक्षायाः क्रियान्वयनं यावत् न भवति तावत् सा शिक्षा व्यर्था एव भवति।
समीचीनं प्रतिपादितं भवत्या महोदये। केचन परम्परागत विद्यालयाः गुरुकुलानि इच्छन्ति, परन्तु गुरुकुलानाम् आधुनिकीकरणं मा भवेदिति भवती कथं चिन्तयति? अस्मिन् विषये कृपया प्रतिपादयतु।
अधुना भवता यः प्रश्नः पृष्टः, गुरुकुलानाम् आधुनिकीकरणं न भवेदिति, सत्यं। यदि आधुनिकतायाः प्रवेशः भवति तर्हि बालबालिकानां व्यग्रता भवति, ते श्रद्धापूर्णाः न भवन्ति, तदा सर्वमपि हितं रञ्जकमेव भवति। आधुनिकता यदा कल्प्यते आधुनिकसौकर्येषु यदि आधुनिकर्येषु दृष्टिर्भवति विद्यायां श्रद्धा न भवति। विद्यायाः प्राप्त्यनन्तरं कथञ्चित् लोके विज्ञानमस्ति, विज्ञानानुगुणं सौकर्याणि भवन्ति, तदा सौकर्यद्वारा जीवितुं शक्नोति। सौकर्यजीवनं वा भवतु, असौकर्यजीवनं वा भवतु, उभयमपि अङ्गीकरोति एव। यदि बाल्ये एव छात्राः सौकर्याणि जीवनस्य अभिलाषाः भवन्ति तदा असौकर्यजीवनाभिलाषाः तस्य न भवन्ति। मम जन्म व्यर्थमिति चिन्तयति, मम विद्यापि व्यर्थमिति चिन्तयति। आधुनिकविद्यालयाः ये सन्ति ते एतादृशविद्यालयाः एव सन्ति, मातापित्रून् वञ्चयित्वा कामकुण्णान् कुर्वन्ति आधुनिकविद्यालयाः। बालबालिकाः स्वेच्छाचारि प्रवृत्तयः भवन्ति, सुखम् आवश्यकमिति वदन्ति, परं तत् सुखं कथमागच्छति? कष्टानुभवेन एव सुखम् आगच्छति इति ते न जानन्ति। कष्टसहनमेव सुखम्। अतः यदि वयम् एतत् सर्वमपि छात्रान् विद्यालयीयजीवने यदि न बोधयामः तर्हि अस्माभिः किं करणीयमिति चेत् नैतिकमूल्यानि शिक्षणीयानि। नैतिकतायाः अभावे सर्वत्रापि समाजे अनैतिकता दरीदृश्यते। एते सर्वेपि विषयाः नैतिकतायाः मूल्यानां सौहार्दपूर्णभावनायाः विकासः कुत्र कर्तुं शक्यते इति चेत् गुरुकुलेषु एव भवितुं शक्नोति। अत एव तु वेदे उक्तं, मा भ्राता भ्रातरं दीक्षन् मा स्वसारं उत स्वसा। भ्राता स्वभ्रात्रा सह द्वेषं न कुर्यात्, अनुजया सह अग्रजया सह प्रेमपूर्ण भावनया व्यवहरेत् इत्यादि नैतिक मूल्यानि कुत्र शिक्षयितुं शक्नुवन्ति? गुरुकुलेषु एव एतादृश शिक्षाः प्राप्तुं शक्नुवन्ति छात्राः। यदि यानि कानि अपि गुरुकुलानि शिष्टानि तेषामपि यदि वयम् आधुनिकीकरणं करिष्यामः चेत् अस्माकं संस्कृतिः सभ्यता च अधोगतिं प्राप्स्यति। अतः एतेषां गुरुकुलानाम् आधुनिकीकरणं नितरां न भवितव्यमेव। ते यथा चलन्ति अधुना तथैव तेषाम् अधुना इतोपि उद्धारः कर्तव्यः इति मम अभिप्रायः वर्तते। अतः गुरुकुलानाम् आधुनिकीकरणं न भवेत्।
सुष्ठुक्तं भवति। सम्प्रति कालो समागतः समापनस्य। गमनावधौ आकाशवाणी पक्षतः शुभकामनाः समर्पयामि अहम् पुनीत त्रिपाठी, भवत्यै धन्यतावचांसि समर्पयामि।
मम कृते एतादृशं स्वावकाशं कल्पितवद्भ्यः आकाशवाणी जनेभ्यः धन्यवादं समर्पयामि।
डॉक्टर लक्ष्मी आर्या महाभागानां प्रेरकानि वचनानि श्रुत्वा जाताः वयं नितराम् आप्लाविताः। अयि संस्कृत प्रेमिणः आगच्छन्तु संस्कृत दिग्दर्शिनी प्रभागे। यत्र विश्वस्मिन् अपि विश्वे संस्कृत संवर्धनाय अनुष्ठितानां कार्यक्रमाणां विषये सविस्तरं संसूचयति मम सहयोगी ललित मोहन तिवारी।
विगते दिवसे प्रसार भारत्याः अध्यक्षः नवनीत सहगलः नवदिल्लीस्थ आकाशवाणी मुख्यालयस्य यात्रां विहितवान्। अस्मिन् अवसरे सः समाचार सेवा प्रभागस्य कार्यप्रणालीमालक्ष्य अधिकारिभिः सह परिचर्चां विहितवान्। असौ अस्मिन् मुख्यालये गुणवत्तापूर्णां सामग्रीं परिकल्पयितुं परिष्कारार्थं च सबलं स्वपक्षं प्रतिपादितवान्। यूनेस्को इत्याख्येन संयुक्तराष्ट्रमञ्चस्य शैक्षिक वैज्ञानिक सांस्कृतिक संघटनेन रामचरितमानसं पञ्चतन्त्रं सहृदयालोकलोकनं चेति विश्वप्रसिद्धाः भारतीय वाङ्मयग्रन्थाः मेमोरी ऑफ द वर्ल्ड कमिटी फॉर एशिया एंड पैसिफिक रीजनल रजिस्टर इत्यस्मिन् समावेशिताः सन्ति। एतदस्ति च अस्माकं भारतीय प्राचीन विद्याः प्रति विश्वस्य ध्यानाकर्षणम्। विगतेषु दिवसेषु कामेश्वर सिंह दरभंगा संस्कृत विश्वविद्यालयस्य बहुद्देशीय भवने प्राक्शोध पाठ्यक्रमस्य समापन समारोह समायोजितः। अस्मिन् एव कार्यक्रमे अध्यक्षत्वेन कामेश्वर सिंह दरभंगा संस्कृत विश्वविद्यालयस्य माननीय कुलपति श्री लक्ष्मी निवास पाण्डेयः, विशिष्टातिथित्वेन रामभद्राचार्य दिव्यांग विश्वविद्यालयस्य कुलपति श्री शिशिर पाण्डेयः, सारस्वत अतिथि विश्वविद्यालयस्य पूर्व कुलपतिः श्री शशिनाथ झा च उपस्थिताः आसन्। ध्यातव्यमस्ति यत् प्राक्शोध पाठ्यक्रमे 80 छात्राः नामांकिताः आसन्।
एवमेव सर्वत्र अविरलं प्रवहतु संस्कृतधारा सन्ततम् इति वयं कामयामहे। अयि रसिकाः श्रोतारः, अद्य बालवल्लरी प्रभागे मम सहयोगिनी साधना शर्मा एकां कवितां प्रस्तौति।
बालाः, श्वः निर्वाचन प्रक्रियायाः पञ्चमं चक्रम्, अतः इमां कवितां सर्वान् अपि श्रावयन्तु। कवितायाः शीर्षकः अस्ति मतदानम्। विश्वस्मिन् भवेदग्रे अस्माकं भारतम्, विश्वस्मिन् भवेदग्रे अस्माकं भारतम्, स्वबलं परिज्ञाय कुरु सदा मतदानम्, स्वबलं परिज्ञाय कुरु सदा मतदानम्, मतदानम् 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 कुरु, कर्तव्यम् यदस्ति ध्यानम् कुरु, मतदानम् 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 कुरु, कर्तव्यम् यदस्ति ध्यानम् कुरु।
अहो, नितराम् साम्प्रतिकः विषयः। मान्याः श्रोतारः, अग्रिमः प्रभागोऽस्ति एकं भारतं श्रेष्ठं भारतम् इति, यत्र अस्मदीयः सहयोगी पुरुषोत्तम शर्मा प्रस्तौति लोकतंत्र विषयकं राष्ट्रियैक्यद्योतकं संस्कृत हिन्दी कुमाऊनी भाषा संगमम्।
प्रथमं वाक्यम् अस्ति, भारतं विश्वस्य बृहत्तमं लोकतंत्रम् अस्ति। हिन्दी में, भारत विश्व का सबसे बड़ा लोकतंत्र है। कुमाऊनी में, भारत दुनिया का सबुहवे ठुल लोकतंत्र छ। द्वितीयं वाक्यम अस्ति, विधायिका कार्यपालिका न्यायपालिका च लोकतंत्रस्य अंगानि सन्ति। हिंदी में, विधायिका कार्यपालिका और न्यायपालिका लोकतंत्र के अंग है। कुमाऊनी में, विधायिका कार्यपालिका और न्यायपालिका लोकतंत्रस्य तीन अंग है। तृतीयं वाक्यम अस्ति, विधायिका विधेः निर्माणं करोति। हिंदी में, विधायिका कानून का निर्माण करती है। कुमाऊनी में, विधायिका कानूनक निर्माण करे।
संस्कृत भाषाया सह कुमाऊनी भाषायाः अयम् संयोगः स्यात् नूनम् आह्लादकरः ज्ञानवर्धकश्च। सहृदयाः श्रोतारः, भवद्भिः सह संवाद प्रवर्तनस्य प्रत्यावर्तन वेला सम्प्रति समापन्नास्ति। इमं कार्यक्रमम् उपसंहर्तुम् अनुज्ञायताम् एष दिव्यानन्दः। संस्कृत साप्ताहिकीति कार्यक्रम विषये भवन्तः स्वकीयान् उद्गारान् प्रकाशयितुम् अर्हन्ति। एतदर्थम् अस्माकम् ईमेल सङ्केतः अस्ति nsgsanskrit@gmail.com। अग्रिमे सप्ताहे अस्मिन्नेव काले अभिनवम् एकम् अंकम् आदाय पुनः उपस्थास्यामहे। भवेत् तावत् मंगलम्। जयतु संस्कृतम्, जयतु भारतम्।